इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर् गणेश हेगडे। अथ वार्ताः। निर्वाचन आयोगस्य अधिसूचनात् परम् असम केरलम् पुदुचेरी राज्याणाम् विधानसभा निर्वाचनार्थं नामांकन पत्रस्य प्रपूरणम् आरब्धं वर्तते। एतैः सह तमिलनाडु पश्चिमबंग राज्ययोरपि विधानसभा निर्वाचनस्य समयसूची रविवासरे घोषिता। असम केरलम् पुदुचेरी राज्येषु एप्रिलमासस्य प्रथमदिनांके मतदानं भविष्यति। सर्वेषां पञ्चराज्याणां मतगणना मे मासस्य चतुर्थे दिनांके भविष्यति। पश्चिमबंगराज्ये आगामि विधानसभा निर्वाचनं दृष्ट्वा निर्वाचन आयोगेन राज्यस्य सर्वेभ्यः आरक्षिस्थानकेभ्यः आगामि गुरुवासरपर्यन्तं स्वस्वक्षेत्रेषु विधिव्यवस्थायाः स्थितिविषये विस्तृतं प्रतिवेदनं दातुं निर्देशः प्रदत्तः। प्रतिवेदने शस्त्रसंचयस्य चिह्नितानाम् असामाजिक तत्त्वानाम् अपराध सम्बद्धानां दत्तांशस्य सूचना अवश्यं भवितव्या। पश्चिमबंगराज्ये निर्वाचनार्थं प्रौद्योगिक्या चालित निरीक्षणे विशेषं बलं दीयते। मतदानकक्षेषु शतप्रतिशतं वेबकास्टिंग अनिवार्यं क्रियते। यदि कस्मिन्नपि मतदानस्थाने वेबकास्टिंग न क्रियते तर्हि पुनः निर्वाचनस्य निर्णयः विचारितः भविष्यति। राज्यस्य निर्वाचन इतिहासे प्रथमवारं बृहत् जनसमागमेषु अथवा संवेदनशीलक्षेत्रेषु परिस्थितेः निरीक्षणं कर्तुं ड्रोन यन्त्राणि कार्यान्वितानि भविष्यन्ति। पश्चिमबंगाल तथा केरलम् राज्ययोः विधानसभा निर्वाचनार्थं भाजपादलस्य अभ्यर्थीनां प्रथमा सूची प्रकाशिता। पश्चिमबंगराज्ये दलेन नन्दीग्रामतः भवानीपुरतः च विपक्षनेता सुवेन्दु अधिकारी विधानसभा आसनार्थं स्पर्धिष्यति। केरलम् राज्ये केन्द्रीयमन्त्री जार्ज कुरियनः कांजीरापल्ली आसनार्थं, दलप्रदेशाध्यक्षः पूर्वकेन्द्रमन्त्री राजीव चन्द्रशेखरः नेममतः स्पर्धां करिष्यतः। पूर्वकेन्द्रीयमन्त्री वी मुरलीधरः कजाकूटम् क्षेत्रे स्पर्धिष्यति। सीपीएम नेतृत्वे एलडीएफ दलेन केरलम् राज्ये विधानसभा निर्वाचनार्थम् अभ्यर्थीनां प्रथमसूची प्रकाशिता वर्तते। सूच्यां मुख्यमंत्री पिनराई विजयनः, वित्तमंत्री केएन रामगोपाल इत्याभ्यां सह आहत्य पञ्चसप्ततिः अभ्यर्थिनः वर्तन्ते। शिवालिक नामिका एलपीजी वाहक नौका 44,000 मेट्रिक टन मितस्य द्रवीकृत पेट्रोलियम अनिलस्य वहनं कृत्वा कतार देशात् ह्यः गुजरातस्य मुंड्रा नौस्थानकं प्राप्ता। नवदिल्ली नगरे पश्चिम एशियायां प्रचलित विद्यमानानां विषये संबोधयन् नौकास्थानक नौकायान जलमार्ग मन्त्रालयस्य विशेष सचिवः राजीव कुमार सिन्हा इत्यनेन सूचितं यत् अद्य अन्या भारतीया एलपीजी वाहक नौका नन्ददेवीति आगमिष्यति। सः इदमपि अवदत् यत् यूएई देशात् निर्गता भारतीय ध्वजयुक्ता वाहक नौका जग लाडकी इति भारतं प्रति सुरक्षित रूपेण आगच्छन्ती वर्तते। दोहा नगरे भारतीय दूतावासेन उक्तं यत् कतार वायुसेवायाः विमानयानेषु ह्यः प्रायः 100+1,000 भारतीय यात्रिकाः नवदिल्ली मुंबई कोच्चि इत्यादिषु गन्तव्यस्थानेषु गतवन्तः। कतारदेशे भारतीय दूतावासेन विज्ञप्तौ उक्तं यत् अद्यापि एतेषु गन्तव्यस्थानेषु विमानयानस्य योजना वर्तते। अनेन उक्तं यत् कतार वायुसेवा अहमदाबाद अमृतसर बेंगलुरू चेन्नई दिल्ली हैदराबाद कोच्चि कोडी कोझिकोड मुंबई 18 मार्च तः विमानयान सेवायाः आरम्भं करिष्यति। अफगानिस्तानस्य राजधानी काबुल नगरस्य एकस्मिन् चिकित्सालये गतरात्रौ पाकिस्तानस्य विमानप्रहारेण न्यूनातिन्यूनं 400 जनाः मृताः, प्रायः 250 जनाः व्रणिताः सन्ति। तालिबान सर्वकारस्य प्रवक्ता जबीहुल्लाह मुजाहिदः अवदत् यत् पाकिस्तानस्य विमानप्रहारेण अस्य चिकित्सालयस्य विशालः भागः नष्टः वर्तते, अतः मृतानां संख्या वर्धयितुं शक्नोति इति वार्ताः।